चिंतामणि प्रकर सद्मसु कल्प प्रज्ञालक्षावृतेषु सुरभि रभि चिंतामणि लक्ष्मी सहस्रशत संभ्रम से बमानं गोविंदं आदिपुरुषं तमः भजामि एकप्रसुरचयतं जगदंडकोटि एकप्रसुरचयतं एकप्रसुरचयतं जगदंडकोटि जच्छक्तिरस्ते जगदंडचया जदन्तं एकप्रसुरचयतं जगदंडकोटि जच्छक्तिरस्ति जगदंडचया जदन्तं अन्नास्थरं स्तं अन्नान्तरस्थं परमान् चयान्तरस्थं गोविन्दं आदिपुरुषं तमः भजामि अन्नान्तरस्थं परमानुचयान्तरस्थं गोविन्दं आदिपुरुषं तमः चिंतामणि प्रकर सद्मसु कल्पवृक्षं लक्षाब्देषु सुरभि रभि चिंतामणि लक्ष्याब्देषु सुरभि रभेप तं लक्ष्मी सहस्रशत संभ्रम सेवमानं गोविन्दं यादिपुरुषं तमः भजामि प्रेमाञ्जनचुरितभक्तिविलोचनेन प्रेमाञ्जनचुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति जं श्यामसुन्दरम् अचिन्तगुणस्वरूपम् रूपम् जं श्याम सुंदरां अचिन्त गुण स्वरूपम् श्याम सुंदरां अचिन्त गुण स्वरूपम् गोविंदम् आदिपुरुषम् तमाहं भज आमि गोविंदम् तमाहं भज आमि चिंता स्वयं समभवत् परमात्मानज गोविंदम् आदिपुरुषम् तमाहं भजामि गोविंदम् आदिपुरुषम् तमाहं भजामि चिंतामणि जस्य प्रभा प्रभवतो जस्य प्रभा प्रभवतो जगदंडकोटि जस्य प्रभा प्रभवत् जगदंडकोटि कोटि सबसुधादि विभूति भिन्नम् यस्य प्रभा प्रभवतो जगदंडकोटि कोटि सबसुधादि विभूति भिन्नम् यस्य प्रभा प्रभवतो जगदंडकोटि कोटि सबस धाति विभूति भिन्नम। तद् ब्रह्म निष्कलम् अनन्तम् अशेषभूतम् तद् ब्रह्म निष्कलम् अनन्तम् अशेषभूतम् गोविन्दम् आदिपुरुषम् तमाहं भजामि। यस्य प्रभा प्रभवतो जगदण्डकोटि कोटि सबसुधादि विभूति भिन्नम्। यस्य प्रभा प्रभवतो कोटि कोटि सबसुधादि विभूति भिन्नम्। तद् ब्रह्म निष्कलम् अनन्तमशेष भूतम् गोविन्दम् आदिपुरुषम् तमाहं भजामि। माया हि यस्य जगदण्ड शतानि सूते माया हि यस्य जगदण्ड शतानि सूते त्रैगुण तद् विषय वेद वितायमाना। माया हि यस्य जगदण्ड शतानि सूते त्रैगुण तद् विषय वेद वितायमाना। सत्यावलम्बी परसत्यं विशुद्ध सत्यं गोविन्दं आदिपुरुषं तमाहं भजामि। सत्यावलम्बी परसत्यं विशुद्ध सत्यं गोविन्दं आदिपुरुषं तमाहं भजामि। चिन्तामणि प्रकरसदमसु कल्पवृक्ष लक्षावृतेषु सुरभि रवि पालयन्तम् लक्ष्मी सहस्रशत संभ्रम सेवमानम् गोविन्दम् आदिपुरुषं तमाहं भजामि। आनन्दचिन्मयरसात्मतया मनस्सु आनन्दचिन्मयरसात्मतया मनस्सु जप्राणिनां प्रतिफलं स्मरतामुपेत्य आनन्द चिन्मयरसात्मतया मनस्सु जप्राणिनां प्रतिफलं स्मरतामुपेत्यम्। कालस्तथात्ममनसीति मनत्राणि अग्निमहि गगनमम् मरुद्दिशश्च कालस्तथात्ममनसीति जगत्राणि जस्मात् भवन्ति विभवन्ति विशन्ति जञ्च। जस्मात् भवन्ति विभवन्ति विशन्ति जञ्च। गोविन्दम् आदिपुरुषं तमहं भजामि गोविन्दं आदिपुरुषं तमहं भजामि। चिन्तामणि प्रकरसदमसु कल्पवृक्षलक्षाभितेषु सुरभि रभि पालयन्तम् लक्ष्मी सहस्रशत सम्भ्रमसे बोमानं गोविन्दम् आदिपुरुषं तमहं भजामि। जच्चक्षुरेष सविता सकलग्रहाणां जच्चक्षुरेष सविता सकलग्रहाणां राजा समस्तसुरमूर्ति रसे सतेजा यश्चक्षुरेष सकलग्रहाणां यच्चक्षुरेष सविता सकलग्रहाणां राजा समस्तसुरमूर्ति रसे सतेजं जस्याज्ञया भ्रमति संवितकालचक्रम् जस्याज्ञया भ्रमति संवितकालचक्र गोविन्दम् आदिपुरुषं तमहं भजामि। अग्निमहि गगनमम् मरुद्दिशश्च गोविन्दम् आदिपुरुषं तमहं भजामि। चिन्तामणि प्रकरसदमसु कल्पवृक्षलभ्याभृतेषु सुरभी गभीपालयन्तम् लक्ष्मी सहस्रशत संभ्रमसेवमानम् गोविन्दम् आदिपुरुषम् तमाहं यामि गोलोक नाम्नि निज धाम्नि तले ततस्य गोलोक नाम्नि निज धाम्नि तले ततस्य देवी महेश हरिधाम सुते सुतेषु गोलक नाम्नि निज धाम्नि तले ततस्य देवी महेश हरिधाम सुते सुतेषु ते ते प्रभाव निचया ते प्रभाव निचया विद्यास जेनं ते प्रभाव निचया विद्यास जेनं गोविंदं आदिपुरुषं तमाहं भजामि गोविंदं आदिपुरुषं तमाहं भजामि चिन्तामणि प्रकर्षदमसु कल्पवृक्षलक्षावृतेषु सुरभीरविपा लयन्तम् लक्ष्मी सहस्रशत सेवमानं गोविन्दं आदिपुरुषं तमहं भजामि जस्तिन्द्र गोपमथमेन्द्र महोषकर्म जस्तिन्द्र गोपमहसकर्म बन्धानुरूप फलभाजनाति जस्तिन्द्र गोपमथमेन्द्र महोषकर्म बन्धानुरूप फलभाजन मातनोति कर्माणि निदहति किन्तु च भक्तिभाजान् कर्माणि निदहति च किन्तु भक्तिभाजान् गोविन्दं आदिपुरुषं तमहं भजामि गोविन्दं आदिपुरुषं तमहं भजामि चिन्तामणि प्रकर सर्मसु कल्पविखलक्षाभितेषु सुरभि रविपालयन्तम् लक्ष्मी सहस्रशत सेवमानं गोविन्दं यादि सं तमाहं भजामि